अखण्डमण्डलाकारम् व्याप्तम् येन सराचरम् तत्पदम् दर्शितम् येन तस्मै श्रीगुरवे नमः अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितम् येन तस्मै श्रीगुरवे नमः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुरेव परम् ब्रह्म तस्मै श्रीगुरवे नमः स्थावरम् जङ्गमम् व्याप्तम् यत्किञ्चित् सचराचरम् तत्पदम् दर्शितम् येन तस्मै श्रीगुरवे नमः चिन्मयम् व्यापि यत् सर्वम् त्रैलोक्यम् सचराचरम् तत्पदम् दर्शितम् येन तस्मै श्रीगुरवे नमः सर्वश्रुतिशिरोरत्ना विराजितपदाम्बुजः वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः चैतन्यः शाश्वतः शान्तो व्योमातीतो निरञ्जनः बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ज्ञानशक्तिसमारूढः तत्त्वमाला विभूषितः भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः शोषणम् भवसिन्धोश्च ज्ञापनम् सारसम्पदः गुरोः पादोदकम् सम्यक् तस्मै श्रीगुरवे नमः न गुरोरधिकम् तत्त्वम् न गुरोरधिकम् तपः तत्त्वज्ञानात् परम् नास्ति तस्मै श्रीगुरवे नमः मन्नाथ श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः गुरुरादिरनादिश्च गुरुः परमदैवतम् गुरोः परतरम् नास्ति तस्मै श्रीगुरवे नमः त्वमेव माता च पिता त्वमेव 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 बन्धुश्च सखा त्वमेव त्वमेव विद्या द्रविणम् त्वमेव त्वमेव सर्वम् मम देव त्वमेव सर्वम्